स्वागतम् आरम्भं कुर्मः।
नमः सर्वेभ्यः। एकं ध्येयमन्त्रं पश्यामः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। एतत् संस्कृतभारती अध्येयमन्त्रम्। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। अवगतम् इति मन्ये। पठामि संस्कृतं, ऐ रीड् स्टडी संस्कृतं, वदामि सदा, सदा एव्रिडे आल्वेस्, ध्यायामि संस्कृतं सम्यक्, ध्यानं करोमि, मेडिटेट् सम्यक् अवगमनं, वन्दे संस्कृत मातरम्, ऐ बो टु संस्कृत माता। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भवतु, वन्दे संस्कृत मातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भवतु, वन्दे संस्कृतमातरम्। प्रसाराय अवगतम् इति मन्ये। संस्कृतस्य प्रसाराय, ऐ गिव् एव्रिथिङ्ग् फार् द ग्रोत् आफ् द संस्कृतं। संस्कृतस्य सदा भवतु, वन्दे संस्कृत भक्तो, वन्दे संस्कृतमातरम्। So, as a devotee of Sanskritam, I salute Sanskrita Matam. I bow to Sanskrita Mata. Sanskritasya krate jivan, Sanskritasya krate yajan, Atmana mahutam manye, vande Sanskrita Mata. Sanskritasya krate jivan, Sanskritasya krate yajan, Atmana mahutam manye, vande Sanskrita Mata. So, Sanskritasya krate, for Sanskritam, I work hard and I offer myself. Yajan ityukte, I offer myself, vande Sanskrita Mataram. Hindu dharmam samajam cha pavitram samskritim tatha samraksya nanu kuryama vishvam शांति समन्वितम्। हिंदू धर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शांति समन्वितम्। हिंदू धर्मं समाजमपि पवित्रं संस्कृतिं वयं शांति समन्वितम् इति कुर्मः इति इत्युक्ते हिन्दू रिलिजन् सोसैटि प्योर् सेक्रेड् हिन्दू कल्चर्, सो फार् देट् वी हेव् टु डेफिनेट्लि प्रिसर्व् दीस् अवर् वर्ल्ड् टु बि एण्ड् मेक् अवर् वर्ल्ड् पीस्फुल्. ध्येयमन्त्रम्,
आम् गृहपाठं पश्यामः. सर्वे उत्तमं प्रेषितवन्तः, उत्तमकार्यं, धन्यवादः. अनिता भगिनी किञ्चित् आरम्भं करोतु, प्रथमद्वयं, सेकेण्ड् अण्ड् तर्ड् किञ्चित् पठतु, किं लिखितवती इति.
नमस्कारः महोदय.
नमस्ते.
बालः उपविशति, बालौ उपविशतः, बालाः उपविशन्ति. अश्वः धावति, अश्वौ धावतः, अश्वाः धावन्ति.
धन्यवादः.
धन्यवादः.
अग्रिमम् अपर्णा भगिनी अग्रिमद्वयं पठतु.
आं महोदय. धेनुः चरति, धेनू चरतः, धेनवः चरन्ति. फलं पतति, फले पततः, फलानि पतन्ति.
धन्यवादः. बालकृष्णमहोदय अग्रिमद्वयं करोतु. बालकृष्णमहोदय अस्ति वा?
आम्. नमस्ते महोदय.
नमस्ते महोदय.
बालः क्रीडति, बालौ बालौ क्रीडतः, बालाः क्रीडन्ति. नर्तकी नृत्यति, नर्तक्यौ नृत्यतः, नर्तक्यः नृत्यन्ति.
सम्यक्, धन्यवादः. अग्रिमं भूमि भगिनी करोतु, अग्रिमद्वयं.
नमस्कारः महोदय.
नमस्कार.
सैनिकः आरोहति, सैनिकौ आरोहतः, सैनिकाः आरोहन्ति. भक्तः प्रयच्छति, भक्तौ प्रयच्छतः, भक्ताः प्रयच्छन्ति.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः.
हेमाङ्गी भगिनी अग्रिमद्वयं पठतु.
आं महोदय. दुष्टः प्रणश्यति, दुष्टौ प्रणश्यतः, दुष्टाः प्रणश्यन्ति. नृपः तृष्यति, नृपौ तृष्यतः, नृपाः तृष्यन्ति.
भगिनि तुष्यति अस्ति, तृ न तु, तुष्यति.
क्षम्यतां, तुष्यति. पुनश्च एकवारं वदामि. नृपः तुष्यति, नृपौ तुष्यतः, नृपाः तुष्यन्ति.
तृष्यति इत्युक्ते किं? तृष्यति भवती वदति खलु.
What is that, Mother?
Trushyati means thirsty. Tushyati is different. Tushyati means like happy or satisfied, pleased, something like that. Nrupaha itushya Rajan. Raja is happy, satisfied. धन्यवादः भगिनि.
धन्यवादः महोदय.
राजश्री भगिनी अग्रिमद्वयं करोतु.
नमस्ते महोदय.
नमस्ते.
एषा कुप्यति, एते कुप्यतः, एताः कुप्यन्ति. एषा शोचति, एते शोचतः.
एते दत्तमस्ति बहुवचने, एकवचने किम् अस्ति?
ओ, एषा एते मने
एषा एते एताः एषः एषः एतौ एते
एषः सोरि एषः एतौ एते यस्
पुनः चिन्ता मास्तु.
एषः शोचति, एतौ शोचतः, एते शोचन्ति.
सम्यक्. धन्यवादः भगिनि.
धन्यवादः. धन्यवादः.
महोदय, एकः प्रश्नः अस्ति. द्वितीय प्रश्ने बाला अपि उचितं वा? बाला
सम्यक्. बाला बाले बालाः अपि वक्तुं शक्यते.
धन्यवादः.
अग्रिमं किम् अस्ति? ओके, सो सम् आफ् यू मेड् सम् स्माल् मिस्टेक्स् लैक् दिस् तृष्यति अण्ड् तुष्यति. उषा भगिनी, भवती अपि तृष्यति लिखितमस्ति, तुष् लिखितवती. उषा भगिनी अस्ति वा?
अस्ति. आम् महोदय.
ओके, नृपः तुष्यति. And kridati is the virga kri, kridati. Couple of you have written the
rasva. Ajay Srinivas.
Okay. सुहासिनी भगिनी, वद् धातुनः किञ्चित् पठतु. लिखितवती वा? वद् वद् धातु अन्म्यूट् करोतु, वदतु भगिनी.
क्षम्यतां महोदय. प्रथमविभक्ति प्रथमरूपं, दट् इस् वदति, वदतः, वदन्ति. मध्यम लिक् सोरि वदसि, वदतः, वदत. उत्तम वदामि, वदावः, वदामः.
इट् इस् काल्ड् मध्यमपुरुष, प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष. एकवचनं, द्विवचनं, बहुवचनं. धन्यवादः भगिनि. अग्रिमं वैभवी भगिनी, लिक् धातुना वदतु, पठतु.
आं महोदय. नमो नमः. लिखति, लिखतः, लिखन्ति. लिखसि, लिखतः, लिखत, लिखथ. लिखामि, लिखावः लिखामः.
सम्यक्, धन्यवादः.
महोदय एकः प्रश्नः अस्ति, इस् इट् लिखतः और स्थः?
कुत्र
लिखसि, लिखस्थः और लिखतः?
लिखतः इस् द्विवचनं, लिखतः इस् बहुवचनम्.
ओके, सो आई हैव
मध्यमपुरुषे द्विवचनं इस् विद् द विसर्ग and bahuvachanam is without the visarga.
Okay, but it is only tha, right? Not thaha. In madhyam purush dvivachana it is just tha with visarga, right?
Yeah. Tha with the visarga.
I have made mistakes everywhere. In madhyam purush dvivachan I have written vadastha by mistake. But I will correct my mistake now. Thank you.
Yeah.
Dhanyavada.
Sahitya Bhagini, agach dhatunah patatu.
Mahadaya, agachati, agachatah, agachanti, pratama purusha, uttama purusha, agachami, agachavah, agachamah, मध्यमपुरुष आगच्छसि, आगच्छतः, आगच्छत.
सम्यक्,
धन्यवाद.
धन्यवाद. सो दिस् इस् होप्फुलि वेरि क्लियर्. इट् फालोस् द सेम् पेटर्न्. लिखति, लिखतः, लिखन्ति. निमिषम्. हेमाङ्गी भगिनी अत्र पश्यतु.
आं महोदय,
पठति वा, लिखति पुनः पठतु.
आं महोदय, लिखति, लिखतः, लिखन्ति प्रथम पुरुष, लिखसि, लिखतः, लिखथ मध्यम पुरुष, लिखामि, लिखावः, लिखामः उत्तम पुरुष.
उत्तम पुरुषः वदतु. सम्यक्, उत्तम पुरुषः, मध्यम पुरुषः. धन्यवादः भगिनि.
धन्यवादः.
रामेश्वरी भगिनी, अस् धातु किञ्चित् पठति वा? अत्र अस्ति खलु.
आम्, प्रथमपुरुषः अस्ति, स्तः सन्ति, मध्यमपुरुषः असि, स्थः स्थ, उत्तम पुरुषः अस्मि, स्वः स्मः.
धन्यवादः.
सो
अत्र पश्यतु, मध्यमपुरुषः, उत्तमपुरुषः, इट्स् ओन्लि वाट् इस् गिवन् हियर्. त्वम्, आवां, त्वम् एण्ड् आवाम्. ओके, प्रथमपुरुषे बहवः शब्दाः सन्ति. अत्र दत्तम् अस्ति खलु. सो प्रथमपुरुषे सः, सा, तत्, भवान्, भवति, सर्वे सन्ति. मध्यमपुरुषे ओन्लि त्वं, युवां, यूयम्. उत्तमपुरुषे अहम्, आवां, वयम्. किञ्चित् विशेषरूपाणि पश्यामः. गतसप्ताहे दृष्टवन्तः खलु, जानाति, पठति. उषा भगिनी किञ्चित् पठतु अत्र. So we have seen the patati, patataha, patanti. So these are different from that. Okay, so we have to keep making
it. Idani matra kinji shabda vati mahodaya. Aham pasha patala.
Chinta mastu. Subodh mahodaya patatu.
आं महोदय. ज्ञाधातुः प्रथमपुरुषः जानाति, जानीतः, जानन्ति. मध्यमपुरुषः जानासि, जानीथः, जानीथ. उत्तमपुरुषः जानामि, जानीवः, जानीमः.
गतसप्ताहे दृष्टवन्तः खलु, केवलं प्रथमपुरुषः दृष्टवन्तः, इदानीं सर्वे दत्तमस्ति. मध्यमपुरुषः, उत्तमपुरुषः अपि. धन्यवादः महोदय. सुहासिनी भगिनी क्रीधातु पठतु.
प्रथमपुरुषः क्रीणाति, क्रीणीतः, क्रीणन्ति. मध्यमपुरुषः क्रीणासि, क्रीणीतः, क्रीणीथ. उत्तमपुरुषः क्रीणामि, क्रीणीवः, क्रीणीमः.
सम्यक्. सो दीस् टु आर् प्रिटि सिमिलर्. Okay, so as we use them, we'll get more and more familiar with this. Dhanyavada Bhagini. Anita Bhagini, Kru Dhatu Patatu.
Aam Mahodaya. Karoti Kurutaha Kuruvanti. करोषि कुरुतः कुरुत, करोमि कुर्वः कुर्मः.
So this is yet again a slightly different what we have seen. एकमपि पश्यामः. भूमि भगिनी पठतु. शक्कधातुः.
शक्कधातुः शक्नोति, शक्नुतः, शक्नुवन्ति, शक्नोषि, शक्नुथः, शक्नुथ, शक्नोमि, शक्नुवः, शक्नुमः.
शक्नुवः, शक्नुमः. शक्नू न शक्नुवः.
शक्नुवः, शक्नुमः.
दीर्घ न भगिनि, ह्रस्व. शक्नुवः.
शक्नुवः, शक्नुमः.
सम्यक्. चिन्तयामः. धन्यवादः.
धन्यवादः.
एकमपि पश्यामः. एण्ड् डोण्ट् वरि इफ् यु डोण्ट् रिमेम्बर् दिस्, कीप् प्राक्टिसिङ्ग्. दिस् विल् कम् वित् प्राक्टिस् एण्ड् यु हव् टु रैट् ग्रिमम्. अग्रिमं श्रूधातुः वैभवी भगिनी पठतु.
आं महोदय. प्रथमपुरुषः शृणोति, शृणुतः, शृण्वन्ति. मध्यमपुरुषः शृणोषि, शृणुतः, शृणुथ. उत्तमपुरुषः शृणोमि, शृण्वः, शृणुमः.
किञ्चित् अत्र पश्यतु. शृणोषि, शृणुतः, शृणुथ, ह्रस्व. So you have to be take notice of the puna patatu madhyama purusha kripaya.
Shrunoshi shrunu shrunutaha shrunutha
shrunutaha
shrunutha
dirgha nasti tattva asti shrunutha shrunutha
dhanyavad
avagatam
avagatam
dhanyavad
dhanyavad
okay karoti punah पश्यामः जया भगिनी करोति पठतु क्रोधातुः
आं महोदय नमो नमः करोति प्रथम पुरुषः करोति कुरुतः कुर्वन्ति मध्यम पुरुषः करोषि कुरुतः कुरुथ उत्तम पुरुषः करोमि कुर्वः कुर्मः
So, karoti we'll be using very often. So, you have to memorize. Dhanyavada Bhagini.
Dhanyavada
Bhagini. Kinchit kantapattam karaniyam. Ratanam karaniyam. Sarve. Yeah, I mean, at the beginning, you may have to, you know, memorize them so that you get the grammar correctly.
So, Ajay Mahoday, for the Raswa and Dirgha, can we say, like, the first letter a little bit longer so the Raswa we can speak a little bit, like, which one I said? Shaknoti? I don't know which one I did.
Shaknoti, Shaknutaha, Shaknuvanti, Shaknoshi, Shaknutaha, Shaknutha, Shaknomi, Shaknuvaha, Shaknumaha. So what was your question?
If I put like little bit pressure on the ka, then like shaknuvaha. So the na automatically like it's raswa. If I say shaknuvaha, then it becomes dirgha. So is it okay like to take the ka a little bit longer, like shaknuvaha, or I have
That is perfect. That's the way you have to say it. Shaknuvaha, shaknumaha, because it's a half ka, right?
Yeah.
So shaknuvaha, shaknumaha, samyak eva.
Okay. Dhanyavada.
Shrunoti punaha pashyamaha. Rajshri bhagini patatu. Shrudhatuhu.
आं महोदय श्रुधातु प्रथमपुरुषः शृणोति शृणुतः शृण्वन्ति मध्यमपुरुषः शृणोषि शृणुतः शृणुथ उत्तमपुरुषः शृणोमि शृण्वः शृण्मः
सम्यक् धन्यवादः ओके Agre Salama. So we'll keep coming back to these because these are some of the special cases. So, Kinchit Patatu Grihe. Okay, Agre Salama. Atra. Here only Pratama Purusha we had seen. So, Etat Chitram Pashyata. Okay. Aparna Bhagini, Atra Patatu, and say one sentence. Raktavarnasya Vakyam Patatu, Tadantaram Ekam Vakyam Api Vadati.
आं महोदय, एतत् चित्रं पश्यत् चित्रे के के पश्यत् चित्रे के के किं कुर्वन्ति इति यथोदाहरणं वाक्यानि लिखत् यथा धेनवः चरन्ति
एकः प्रश्नः द्विवचने अस्ति चेत् तत्र धेनु एव दृश्यते सो इफ् इट् इस् इन् द्विवचनं किम् अस्ति
धेनु
धेनु
द दीर्घनु धेनु चरतः
सम्यक् सम्यक् भगिनि
चरतः शुनकः भसति सो फॉर बार्किंग से भसति
राइट
सो देयर इज ओनली वन डॉग सो शुनकः भसति
सम्यक् धन्यवाद भगिनि
धन्यवाद महोदय
बालकृष्ण महोदय किञ्चित् अपि एकवाक्यं वदतु चित्रं दृष्ट्वा
बालकौ क्रीडतः
धावति इत्युक्ते किं भवति
बालकौ धावितः
धावति रन्
धावतः
सम्यक् सम्यक् महोदय धन्यवादः हेमाङ्गी भगिनी एकवाक्यं वदतु किमपि
महिले वदतः
उत्तमं सम्यक् धन्यवादः
धन्यवादः
सरस्वती भगिनी वदतु वाक्यद्वयं वदतु दृष्ट्वा
पुरुषाः भाषणं कुर्वन्ति
सम्यक्
द्वयं रै वृक्षाः सन्ति
सम्यक् एव गुड् गुड् यू यूस्ड् कुर्वन्ति उत्तमं भगिनि धन्यवादः
धन्यवादः
किञ्चिदपि अस्ति वा ओके रामेश्वरी भगिनी अन्तिमवाक्यमेकं वदतु
बालकः तिष्ठति महिला
देवालयं किमपि अस्ति वा तत्र
बालकौ क्रीडतः अत्र द्वे महिले स्तः एकः बालकः तिष्ठति
चिन्ता मास्तु उत्तमं भगिनि धन्यवाद या जस्ट् टु गेट् वी आर् गेटिङ्ग् फेमिलियर् वित् द वर्ब्स् एण्ड् यु नो एकवचनं द्विवचनं नथिङ्ग् मोर्
Ajay Mohabaya, there are one couple sitting over there, so can we say Yugalam Upavishataha? Okay.
Couple sitting means Upavishati you have to say.
Okay, because there were two, so I was not sure, Upavishati or Upavishatah.
Yeah, yeah. So, you can say like, Balakadvayam Upavishati is how you will say it. So, if there are, even if there are two.
But for the couple, like, there were one man and one lady over there sitting. So I thought like if we say Yugalam, like for a couple, that yugalam upavishati or upavishatah?
Upavishati, it's difficult to say because couple is singular. So if there are couples, you know, two couples and three couples, so like that. But one couple sitting. Okay?
Yeah.
Upavishati.
Upavishati. Okay.
Okay, can we say Mata Pitarau Sambhashanam Kurutaha?
Samyak. That's how you would say. Samyak Eva.
At the same time, we can do this. Mahila Purushau Rukshasya Adaha Upavishataha.
Mahoday, I was thinking Dampati Bhashataha.
Bhashataha.
Or it will be Bhashati.
Bhashati, I think, will be right.
Bhashati. Because, yeah, as you said, it is a single couple. Yeah.
Right.
Singular. Okay.
Or Sambhashanam Karoti?
It means the same, yeah?
Yeah.
A lot of good questions. Yeah.
Yeah. We are just throwing balls to you.
I'm trying to duck some of them, but yeah, Samyak.
Yeah, that's
okay. So, Agre Saramaha, this, it's the same. So, you can do this at home. You have to just match the two. The noun and the verb you have to match. Grace Ramaha. Etat Sambhashanam Pashyama. So, Saraswati Bhagini Bhavati Yashoda. Can you read the Yashoda lines? And Rameshwari Bhagini Krishnaha. Read like up to half, then we'll have somebody else. Like, read like both half a dozen lines.
Okay.
Aramam karo.
Hey Krishna, tvam kutra asti?
Aham dvarasya.
Tvam kutra asi?
Aham dvarasya prushtatah asmi. अग्रजः अपि अत्र अस्ति.
युवां तत्रैव स्तः किम्?
आम् आवाम् अत्रैव स्वः. नीला अपि अत्र अस्ति.
यूयं चोराः स्तः किम् अस्ति तव हस्ते? नवनीतं खादसि किम्?
नैव अम्ब, वयं क्रीडामः.
असत्यं वदथ, नवनीतं चोरयत्त खलु?
त्वमेव यच्छसि.
धन्यवादः महोदय.
धन्यवादः.
We'll have somebody else read. Hemangi Bhagini and Suhasini Bhagini, can you continue the dialogue?
Mahodaya. Krishna, Twameva Yachasi Kalu, Punaha Vayam Kimartham Chorayamaha.
Into Gopika Vadati, Twam Navanitham Nayasi Iti.
मिथ्या अम्ब अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि.
युवां चोरौ स्तः एव किमर्थम् असत्यं कथयसि?
नीले त्वं वदसि चेदेव अम्बा विश्वसिति.
पर्याप्तम्, अहं विश्वसिनी आगच्छत।
अस्तु आगच्छामः।
धन्यवादः। So lot of Madhyamapurushe, Madhyamapurushe, Bahuni Vakyani Santi. So, Punar Pashyamaha. Subodh Mahodaya. प्रथमवाक्यद्वयत्रयं किञ्चित् परिशीलयतु।
आं महोदय। हे कृष्ण त्वं कुत्र असि इत्युक्ते वेर् आर् यू कृष्ण। हे कृष्ण सम्बोधनविभक्ति त्वं द्वितीया विभक्ति एकवचन
मध्यमपुरुषे एकवचनं
सारि मध्यमपुरुषे एकवचनं
असि अपि असि अपि त्वं अनुसरति। ओके वि असि अस्ति स्तः सन्ति असि स्तः स्त
अहं द्वारस्य पृष्ठतः अस्मि। उत्तमपुरुषः अहम् अहमस्ति उत्तमपुरुषः। द्वारस्य अस्ति षष्ठी विभक्ति। पृष्ठतः पञ्चमी दर्शयति अस्मि उत्तमपुरुष एकवचनम्। अग्रजः अपि अत्र अस्ति। अग्रजः प्रथमा विभक्ति एकवचन। अत्र अस्ति इस् अगेन् सारि प्रथमपुरुष एकवचन।
सम्यक्।
धन्यवादः।
So look here, in the first one, Tvam Asi. In the second one, Aham Asmi. Agrajaha Asti. Yuvam Staha. Like we have seen. Atra Dattam Asti Kalu. अस्ति स्तः सन्ति असि स्तः स्त अस्मि स्वः स्म। सो दिस् फालोस् दट्। रामेश्वरी भगिनी अग्रिमं किञ्चित् वदतु।
युवां तत्रैव स्थः किम्। युवां स्थः मध्यम पुरुष द्विवचन। आम् आवाम् अत्रैव स्वः। नीला अपि अत्र अस्ति। आवाम् स्वः उत्तम पुरुषः द्विवचनं। नीला अस्ति प्रथम पुरुष एकवचन प्रथम पुरुषः एकवचनं। यूयं चोराः स्थः। सो यूयं स्थः मध्यमपुरुष
पश्यतु स्थ खलु।
क्षमतां
यूयं किं
यूयं मध्यम मध्यम पुरुषः बहुवचनं। यूयं स्थः किम् अस्ति तव हस्ते।
भगिनी एक निमिषं स्थः न स्थ
ओ सोरि
खलु।
आम् यूयं चोराः स्थः मध्यम पुरुषः बहुवचनं यूयं स्थः यूयं स्थ
Yeah, the staha is the dvivacham with the visarga. Hmm? It's a little confusing, but we'll get used to it. Ah.
Navanitam khadasi kim? So, tvam khadasi. Madhyam purushaha ekvachanam.
Ah, samyak.
Mahodaya, ekah prashna hasti. पृष्ठतः किमर्थं पञ्चमी विभक्ति सूचयति
पञ्चमी
यूजुअली
व्हेन यू सी द तः इट शोस पञ्चमी बट हियर इट इज you can say it is avyaya. Hemangi bhagini agrimam patatu vadatu kim asti
starting from naiva right
mm-hmm.
naiva amba so no Eva. So, no. Yeah. Eva and no is no and Eva is avyaya. Amba is sambodhana. Prathama purush ekvachan. Sambodhana. Vayam is uttama purushah bahuvachanah. Vayam. Kridamaha is uttama purushah bahuvachanam kriyapadam. Kridamaha.
Samyak uktavati bhavati. Na and Eva is it is a sandhi so naiva
naiva dhanyavada agrimam api karomi va
karotu
dhanyavada asatyam vadath asatyam vadath is madhyama purush bahuvachan vadath navanitam chorayath khalu So again, Chorayatha is Madhyama Purushah Bahuvachan.
Eka Prashnah. Why is it in Bahuvachanam there?
Because here, Naiva Amba Vayam Kridamaha, that is why.
So, Keke Santi Tatra Vadatu?
Krishna asti, Balaram asti, and Neela asti.
Samyak bhagini. Agrima vakyam api patkaratu.
Astu. Tvameva yachasi khalu. Tvameva is, tvam is, tvam eva. This is the sandhi, tvam eva. So, tvam is madhyam purush eka. Madhyama Purushah Ekvachan. Yachasi is Madhyama Purushah Ekvachanam Kriyapadam. Vadasi Khalu. Khalu is like, I guess, avyaya, I'm not sure. Punaha Vayam Kimartham Chorayamaha. So again, Vayam is Prathama Purushah Bahuvachanam, sorry. And Chorayamaha is Prathama Purushah Bahuvachanam Kriyapadam Chorayama.
Samyak Bhagini Uttamam. Dhanyavada.
Dhanyavada.
So Khalu is like you have heard Kila. So they mean roughly the same.
Kshamyadamaha. Chorayamaha Tara Uttama Purushah.
Uttama Purushah Vayam.
Uttama
Ha, by mistake, I guess. Yeah, Uttama Purusha, I'm sorry. By mistake, I have I said Prathama Purusha, it's Uttama Purusha Bahuvachana.
Samyak. I also missed it. Dhanyavada, Usha Bhagini. Suhasini Bhagini Agrimam Karotu. किन्तु
किन्तु गोपिका वदति वदति इस् प्रथम प्रथमपुरुष अण्ड् त्वम् इस् मध्यमपुरुष अण्ड् नवनीतं नयसि इस् आल्सो मध्यमपुरुष एकवचन महोदय धन्यवाद
अग्रे अपि करोतु
अग्रजं शशि पृच्छसि इस् मध्यमपुरुष एकवचनं चेत् सत्यम् अवगच्छसि इस् आल्सो मध्यमपुरुष एकवचनम्
सम्यक् धन्यवादः भगिनि ओके सो यु गेट् द ऐडिया ओके लेट्स् डू टू मोर् सेण्टेन्सस् वैभवी भगिनी करोतु
आं महोदय युवां चोरौ स्थ this is madhyam purush dvivachan chorau is chorau is pratham purush dvivachan kim artham asatyam
prathama vibhakti dvivachan
prathama vibhakti dvivachan किमर्थम् असत्यं कथयसि कथयसि मध्यमपुरुष एकवचनं नीले त्वं वदसि चेदेव अम्ब विश्वसिति त्वं वदसि अगेन् इस् मध्यमपुरुष एकवचनं Should I continue?
And Chedeva is like Chet Eva. Okay, we have seen that Chet, Chet no Chet. Eva. So Chet Eva is Chedeva. Vishwasiti. Samya, Kanyavada Bhagini. Eka Prashnaha, that Yuvam Chorau Staha Eva. Can you say that in Bahuvachanam? Madhyama Purusha Bahuvachane Kim Bhavati.
Yeah. Yuvam stha will be there give
chorau bahuvachane kim bhavati
choraha
yuyam
choraha stha
samyak bhagini uttamam karya dhanyavada okay so See, when one changes, the other will change. So that is what you have to keep in mind. Okay. Balakrishna Mahodaya, kinchit patatu atra. रक्तवर्णस्य वाक्यं पठित्वा उत्तरं ददातु प्रथमप्रश्नद्वयं
त्वं फलं
प्राप्नोषि प्रथमं पठतु
अहम् आवां वयम् एतेषु उचितस्य रूपस्य प्रयोगेण एतेषां प्रश्नानाम् उत्तराणि लिखत प्रथम प्रश्नः त्वं फलं प्राप्नोषि किम् आम् अहं फलं प्राप्नोमि
सम्यक्
भवन्तः गीतां जानन्ति किम्? आम् आवां गीतां
महोदय भवन्तः
जानीमः जानीमः
भवन्तः किम् अस्ति किं वचनं
द्विवचनं
न न भवान् भवन्तौ भवन्तः खलु
भवन्तः बहुवचनम्
उत्तरं किम् अस्ति तत्र बहुवचने अस्ति खलु भवन्तः अहम् आवां बहुवचने किं भवति
वयं गीतां जानन्ति
जानन्ति वा उत्तमपुरुषः बहुवचनं जानामि जानीवः जानीमः जानीमः चिन्ता मास्तु वि हेव् जस्ट् सीन् इट् सो नो नो वरीस् लेट् मी अत्र पश्यतु पुनः पठतु महोदय या धातुः
जानाति जानीतः जानन्ति जानासि जानीतः जानीथ जानामि जानीवः जानीमः उत्तमपुरुषः
जानीमः चिन्ता मास्तु उत्तमं महोदय या ओके गुड् एक्सर्सैज़् धन्यवादः महोदय अग्रिमम् अनिता भगिनी अग्रिमद्वयं पठित्वा उत्तरं ददातु
यूयं पाठं पाठं लक् शृणुत किम् वयं शृणुतः शृणुतः विलिपिकं शृणुमः
सम्यक् शृण्मः
शृण्मः
अर्धना अस्ति शृण्मः
नेक्स्ट् वन् यूयं श्लोकान् चिनुथ किं दिस् विल् बिकम् चिनुमः
पूर्णवाक्यं वदतु
यूयं श्लोकान् चिनु चिनुत किम् आवां श्लोकान् चिनु चिनुमः
आवां न वयं
सोरि वयं वयं सोरि
चिन्ता वयं चिनुमः
चिनुमः
ओके धन्यवादः भगिनि सो द ओन्ली वे इस् टु कीप् प्राक्टिसिङ्ग् एण्ड् डूयिङ्ग् दट् सो ऐ विल् डू सम् मोर् भूमि भगिनि अग्रिमद्वयं करोतु
भवती गीता गीतासारं जानाति किम् आम् अहं गीतासारं जानामि युवां गीतापुस्तकं गृह्णीतः किम् आम् आवां गीतापुस्तकं गृह्णीवः
गृह्णीयवः सम्यक् धन्यवादः भगिनि
धन्यवादः
Vrinnati, I think we didn't see. Kinchit patatu bhagini atra.
Grahadhatu, pratham purushaha, grihnati, grihnitaha, grihnanti. Madhyam
bhagini,
purushaha.
So it should be like grihnati, okay? Grihnati, grihnitaha, grihnanti. You will get it, but it is a half ha and a na. So the ha comes before the na. Grihnati.
Okay. Grihnati, grihnitaha, grihninti. Grihnanti. Madhyam purushaha, grihnasi, grihnitaha, grihnitha. Uttam purushaha, grihnami, grihnivaha, grihnimaha.
Samyak. Dhanyavada. So as you see, many of them follow the same pattern, even though they are different from the patadatu, patati, patataha, patanti, patasi, patataha, patatha. See, all the ending is the same. But in between, you have the grnitaha. So depending on the dhatu, there is a little change.
Is it grnhati or grhnati? Means like the na comes first or ha comes first? I couldn't follow.
The ha is first. Grnhati.
Yeah. Okay. Oh,
yeah.
Okay.
Not.
And that is caring, right? Did you carry it up?
Holding, carrying, yeah.
Yeah, okay.
Agrimam. Rajshri Bhagini Karotu.
Amodya. Tvam karyam kartum shaknoshi kim? Am aham. अहं कार्यं कर्तुं शक्नोमि युवां जीवनलक्ष्यं प्राप्नुतः किम् आवां जीवनलक्ष्यं प्राप्नुवः प्राप्नुवः
आम् द नंबर 7 केन् यू डू इन् बहुवचनम्
यूयं कार्यं कर्तुं शक्नुतः किं यूयं कार्यं कर्तुं शक्नुतः
उत्तमम् उत्तरमपि ददातु
वयं कार्यं कर्तुं शक्नुमः
उत्तमं भगिनि
धन्यवादः
बट् इन् डौट् जस्ट् keep looking at the back and forth. So,
okay.
Dhanyavad. Usha Bhagini Samapayatu.
Aam Mahode. Bhavantaha Gitayaha Kantasthi Karanam Kurvanti Kim Na Vayam गीतायाः कण्ठस्थीकरणं न कुर्मः भवतः पुष्पाणि चेतुं शक्नुवन्ति किम् आम् वयं पुष्पाणि चेतुं शक्नुमः धन्यवादः
द लास्ट् सेण्टेन्स् केन् यू से इन् द्विवचनम्
भवन्तौ पुष्पाणि चेतुं शक्नुतः किम् आम् आवां पुष्पाणि चेतुं शक्नुवः
उत्तमं भगिनि धन्यवादः ओके सो एट् लीस्ट् वी गेट् लिटिल् हेङ्ग् आफ् दिस्
महोदय चेतुं
प्रश्नः अस्ति वा
लास्ट् क्वश्चन् चेतुम् इत्युक्ते किम्
सो चिनोति जानाति वा Chinoti means like pick. So this is the Tumun form of Chinoti. Chetum.
Oh.
Tumun janati khalu?
Amodya. Astu. Dhanyavad.
Okay. Others. Okay. Etattu grihapatameva. ओ 108 वाक् 108 न आवश्यकं. सो वेन् यु डू दिस् अट् होम् जस्ट् डू वन् ओके एण्ड् देन् सर्कल् अराउण्ड्. सो यूस् त्वम् एण्ड् यूस् द एण्ड् रैट् द अप्रोप्रियेट् फार्म् आफ् द वर्ब् ओके. द मोर् यु वाण्ट् टु रैट् दट्स् फैन् बट् अट् लीस्ट् डू दिस् वन् गो. गीतायाः चतुर्थ ओके एण्ड् इफ् पासिबल् ट्रै टु डू दिस् आल्सो. सो दिस् यु हेव् टु पिक् द क्रियापदानि इन् द इन् दीस् वर्सस् इन् द चतुर्थः अध्याय. In the fourth chapter, these are the verse numbers. So if you have the Gita, you can look at it and pick what you think are the kriyas in those verses. It will be a good exercise. Okay. Okay, this also we'll do in the next class. Kam katam pashyama idani. Ekanamish.
एकां कथां पश्यामः, पठामः अपि. बालमोदिनी कथा अस्ति. साहित्या भगिनी वाक्य प्रथमपरिच्छेदं पठतु, आरम्भं करोतु अत्रतः.
श्रीकृष्णः भक्त
नाममपि पठतु कथायाः नाम.
विपरीतः आशीर्वादः. श्रीकृष्णः भक्तवत्सलः. कदाचित् सः अर्जुनेन सह नगरे सञ्चारं कुर्वन् आसीत्. एवं सञ्चारं कुर्वन्तौ तौ एकस्य दरिद्रस्य गृहं गतवन्तौ.
किम् अवगतं वा, विवृणोति वा किञ्चित्?
या लिटल् बिट्.
कदाचित् सः ओके, अहं विवृणोमि, परिशीलयतु. कृष्णः भक्तवत्सलः, अवगतं खलु. कदाचित् सः अर्जुनेन सह नगरे सञ्चारं कुर्वन् आसीत्. कदाचित् सम् टैम् कदाचित् कथायाम् अस्ति एव एतत् सर्वं. सम् टैम् सम् वेर् ओके. कदाचित् सम् टैम् सः अर्जुनेन सह, तृतीया अस्ति, अर्जुनेन सह नगरे नगरे सञ्चारं कुर्वन् आसीत्. सो हि वास् ट्रावेलिङ्ग् वित् अर्जुन इन् अ टौन्. एवं सञ्चारं कुर्वन्तौ तौ, सि अत्र द्विवचनम् अस्ति, कुर्वन्तौ तौ कण्टिन्युस् टेन्स्,
कुर्वन्तौ तौ एकस्य दरिद्रस्य गृहं गतवन्तौ. सो आल् द्विवचने अस्ति. सो दे वेण्ट् टु दरिद्रस हि इस् अ पुअर् गाय् दे वेण्ट् टु अ हौस् आफ् अ पुअर् गाय्. अग्रिमं अपर्णा भगिनी अग्रिमपरिच्छेदं पठतु.
सः धनेन दरिद्रः आसीत् न तु गुणैः. भगवच्चिन्तनेन भावन्नामस्मरणेन भगवत्पूजया च सः दिनं यापयति स्म. लौकिकव्यवहारेषु तस्य आसक्तिः सर्वथा न आसीत्. तस्य एका धेनुः आसीत्. धेनुतः प्राप्तं क्षीरम् एव तस्य प्रधानः आहारः आसीत्. सः धनेन दरिद्रः आसीत्. धनेन इत्युक्ते तृतीया विभक्ति. सो हिस् पुअर् बाय मनी बट् नाट् बाय गुणम्. सो धनेन दरिद्रः आसीत् न तु गुणैः. गुणैः वुड् आल्सो बि तृतीया. भगवच्चिन्तनेन भावन्नामस्मरणेन भगवत् पूजया च. सो वित् द थ्री थिङ्ग्स् भगवच्चिन्तनं भावनामस्मरणम् एण्ड् भगवत् पूजा सः दिनं यापयति स्म. सो हिस् एण्टायर् डे इस् फुल् आफ् भगवच्चिन्तनं भगवन् नामस्मरणम् एण्ड् भगवत् पूजा. सो I think this is also a Tritiya Vibhakti.
Yeah, so all Tritiya.
All Tritiya Vibhakti.
Yeah. So Pooja. Pooja-ya.
Pooja-ya, because it is Tri.
Yeah, Amagi.
Lingam. Bhagavaya-cha. Laukika Vyavahareshu, Tasya Asaktihi Sarvathana Asit. Laukika Vyavahareshu is Shashti. I feel it's Shashti. तस्य वुड् बि तृतीया.
न तस्य भगिनि सः तौ ते तस्य नाम किम्?
ओ ओके.
इदानीं उक्तवती अहं षष्टि विभक्ति.
इदानीं षष्टि विभक्ति. सो हि हेज् नो आसक्ति इन् आल् द लौकिक व्यवहार. तस्य एका धेनुः आसीत्. हि हेज् वन् काव्. धेनुतः प्राप्तं क्षीरम् एव तस्य प्रधानः आहारः आसीत्. सो द मिल्क् आफ् द काव् इस् इस् मेन् फुड्. सो धेनुतः प्राप्तम् इस् इट् डस् इट् शो पञ्चमी.
धेनुतः
प्राप्तं एव तस्य प्रधानः. सो तस्य अगेन् सेम् थिङ्ग् एस् बिफोर् लैक् तस्य धेनु.
तस्य षष्टिविभक्ति.
षष्टिविभक्ति तस्या प्रधानः आहारः आसीत्.
मेन्
फुड् फार् हिम्.
अवगतम्?
अवगतम्.
अवगतं खलु.
धन्यवादः भगिनि.
जया भगिनी अस्ति वा तत्र? अग्रिमपरिच्छेदं पठतु.
गृहम् आगतं श्रीकृष्णम् अर्जुनं च दृष्ट्वा सः निर्धनः नितरा सन्तुष्टः. सः तौ सन्तोषेण स्वागतीकृतवान्. भक्त्या विनयेन च तौ नमस्कृत्य विविध्यै उपचारैः तौ विविधैः उपचारैः तौ सत्कृतवान्. गृहम् आगतं श्रीकृष्णं. दिस् इस् आल् द्वितीया विभक्ति एकवचनं अर्जुनं च दृष्ट्वा सक्त्वा प्रत्यय सः निर्धनः नितरा सन्तुष्टः मीन्स् लैक् he was very happy
nitaram ityukte ativa santushta ativa iti
very very ativa santushta saha tau santoshena means tritiya ekavachanam ekavachanam tritiya vibhakti ekavachanam
swagati tau kimasti
tau is
tau kimasti
divachanam
arjuna krishna arjuna krishna api kalu
सन्तोषेण स्वागती कृतवान् त्वान्तप्रत्यय भक्त्या विनयेन वित् भक्ति विनयेन एण्ड् ह्युमिलिटि च तौ नमस्कृत्य इस् लेबन्त प्रत्यय लेबन्त शब्द तौ इस् द्विवचनं विविधैः इस् तृतीय बहुवचनं उपचारैः तृतीय बहुवचनं तौ सत्कृतवान् सो हि गेव् सत्कृतवान्
सत्कारं कृतवान् So he did atithi satkaram vadati sir.
Yeah.
So, dhanyavada bhagini uttamam.
Dhanyavada.
Balakrishna mahode agrima parichedam patatu. Dar atra drishyate kalu. दरिद्रस्य
आधिक्येन संतुष्टः श्रीकृष्णः आशीर्वादं
अत्र उपरि
कृतवान् धेनुवियोगः भवतु भवतः इति
अग्रिमवाक्यद्वयमपि पठतु
ततः निर्गतौ तौ एकस्य धनिकस्य गृहं गतवन्तौ सः धनिकः गर्वयुक्तः दुष्टः च आसीत् दुर्व्यसनानां दासः आसीत् सः गृहम् आगतौ एतौ दृष्ट्वा सः नितरां कुपितः
अत्र पश्यामः वदतु अत्र किम् अभवत्
दरिद्रस्य षष्टिविभक्ति आधिक्येन दट् इस् तृतीय सर्वीस् सन्तुष्टः एपिटेन् हेपि श्रीकृष्णः आशीर्वादं ब्लेस् हिम्
कृतवान्
ब्लेस् हिम् धेनुवियोगः भवतु भवतः इति that he blessed him that he will get rid of his cow also
dhenu viyoga court madhe asti kalu court madhe krishna uktavan aashirvadam krutavan dhenu viyoga bhavatu bhavatah so dhenu viyoga ityukte separation kalu so you will be separated from your cow bhavatu भवतः युवर् यु विल् बि सपरेटेड् फ्रोम् युवर् काव् दट्स् द आशीर्वादं कृतवान्
you will get rid of it, separated from him. He will lose his cow also, probably.
He might. It will be, you will be separated. Let you be separated. That's what he is. Bhavatu.
Bhavatu.
Hmm.
Tathaha, nirgatau tau, from there they left from there, tathaha, from there, that is a panchami, that's a thing, nirgatau tau.
Nirgatau tau, kau nirgatau?
Both of them, Arjunaha, Sri Krishnaha and Arjunaha.
Arjuna, Sri Krishna.
Ekasya dhanikasya griham gatavanto. Both of them went to a rich man's house. That is Shashti Ritasi. Dhanikasya. Saha dhanikaha garbayuktaha dushtaha cha asid. He was very haughty, rich man, and cruel also. Durvyasananam dasaha. That means wrong thoughts, maybe durvyasananam dasaha asit saha. He was given to wrong ideas or thoughts.
Bad habits.
Vyasana is tukte habit, Mahodaya.
Bad
Durvyasana. Vyasana, Durvyasana. Durvyasana naam ityukte ki ka vibhakti?
Durvyasana naam Durvyasanam
Bahuvachane asti.
Bahuvachane.
Shashti Bahuvachane.
Shashti vibhakti ade.
Durvyasanam Durvyasana naam. Okay. Dasa. He was a dasa of a bad habit.
He was slave to bad habits. Okay.
He was a
bad habit. He was slave to bad habits. Griham agatau etau drishtva saha nitaha bhupitaha. He got very much angry seeing his guests. Graham, Eto Drishtva, both of them, seeing them, he got very angry.
Nitaha kupita. Astu Mahodaya, dhanyavada.
Sarla Bhagini, ekah prashna asti. Can we say Ashirvadam Dattavan, or it's always Kratavan with Ashirvad?
Dattavan api samyak. Okay. Dattavan, usually Dattavan eva. Kratavan maya. Yeah. They use it interchangeably. Yeah, that api samyak.
Okay.
Agrima parichayadam patatvatra. Kupita.
Avachyaihi shabdaihi nindana saha Shri Krishna Arjunayoho apamanam kratavan. Apamananam kratavan. Etat sarvam drashtavatah Arjunasya kopah agatah. Kintu Krishnah tu hasan mukhah eva asit. Saha mandahasa purvakam dhanikam uktavan. Bhavatah sampatihi pravriddha bhavatu iti. Avachyaihi shabdaihi. So he said
Avachyaihi.
Shabdaihi. Avachyaihi shabdaihi. So tritiya shabdaihi. Avachyaihi shabdaihi is tritiya bahuvachan. Nindan saha, so saha is that dhanikaha. Sri Krishna Arjuna yoho is tritiya vibhakti, dvivachanam. Apamananam kratavan So with wording what he which he is not supposed to say, he said those words to Shri Krishna and Arjun, and he did apaman, kratavan, is a bhutakala. Etat sarvam drashtavatah arjunasya kopah agat. So etat is tad prathama vibhakti, sarvam is avyayam, drashtavatah. Drashtavatah panchami, arjunasya is shashti vibhakti, kopah agatah. So he felt, he became angry. Kintu krishna tu hasanmukhah eva asit. Kintu is avyay, krishna is prathama vibhakti, ek vachana. Tu is avyay, hasanmukhah is I don't know. Eva is prathama ek vachan.
So vataha ityukte, I got disconnected bagini. Panchanimesha na shrutavati bhavati kim muktavati iti. Parantu drashta vataha ityukte vivachane asti tatra.
Oh, yeah, okay. So like pathataha, okay. Drashta vataha is the द्विवचन अर्जुनस्य
दृष्टवतः इति शत्रु प्रत्यय इति मन्ये अर्जुनस्य दृष्टवतः अर्जुनस्य दृष्टवान् अर्जुनस्य अड्जेक्टिव् विशेषणरूपेण अत्र तिष्ठति वा
शत्रुप्रत्यय एव शत्रुप्रत्यय एव परन्तु सूचयति क्रियापदं सूचयति भगिनि
धन्यवादः
एड्जेक्टिव् अस्ति परन्तु विभक्ति अस्ति तत्र लकारे नास्ति परन्तु विभक्त्याम् अस्ति विशेषणरूपेण सम्यक् वदति भगिनि वदतु भगिनि
सो अर्जुन् बिकम् एङ्ग्रि किन्तु कृष्णः तु हसन्मुखः एव आसीत् किन्तु एन् तु अव्यय कृष्णः इस् प्रथमपुरुष एकवचनः हसन्मुखः प्रथमपुरुष एकवचनः एव इस् अव्यय आसीत् आसीत् लैक् हि वास् जस्ट् स्माइलिङ्ग् श्री कृष्णः वास् जस्ट् स्माइलिङ्ग् सः
एव आसीत् इत्युक्ते भूतकाले लङ्लकार
लङ्लकार भूतकाल ओके सः मन्दहासपूर्वकं धनिकम् उक्तवान् सो सः इस् प्रथमपुरुष एकवचन मन्दहासपूर्वकं मन्दहासपूर्वकम् इस् द्वितीयाविभक्ति धनिकम् द्वितीया विभक्ति उक्तवान् इस् भूतकाल भवतः सम्पत्तिः प्रवृद्धा भवतु भवतः इस् षष्ठी विभक्ति सम्पत्तिः सम्पत्ति प्रवृद्धा भवतु भवतु इस् तुमुन् लैक् करोतु भवतु
भगिनी कः अकारः अस्ति भवतु
भवत्
करोतु वी हैव सीन राइट व्हाट इज इट भवति भवतु
करोतु सो आई थॉट इज तुमुन
नो भवतु इज लोट लकारे अस्ति
लोट लकार ओ या लोट लकार सॉरी
गच्छतु दृष्टवन्तः खलु
Yeah, I was thinking about Lot Lakar, but I was saying Tumun, I'm sorry. Tumun is Kwa. Yeah, Tumun is Kwa.
Ammiti Shuryate, no. Tum, Atra, Amma Nasti, Bhavatu. Hello?
Bhavatu.
Tum is Tumun.
Tumun, ha, ha. So, Lot Lakar. So bhavatah is a shashti vibhakti. Sampattihi is prathama ekvachan. Okay. Pravriddha bhavatu. Bhavatu is lot lakar. Iti is avyay. Yeah.
Pravriddha means what? Vriddhi. Vriddhi bhavatu iti. Pravriddha. Increase. Like your wealth increase.
Yeah. So you're still, he was like angry, but Sri Krishna said your wealth will increase.
Okay. इदानीम् अत्र एव समापयामः. प्रार्थनाम् उक्त्वा समापयामः. रामेश्वरी भगिनी प्रार्थनां वदतु.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः.
धन्यवादः सर्वेभ्यः.
धन्यवादः.
धन्यवादः.